इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्यास्य आकाशवाणी कार्यक्रमस्य एतत् 35.1 संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्या क्षेत्रीयभाषासु अपि भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य सेशेल्स देशस्य राष्ट्रपतिना पैट्रिक हर्मिनी इत्यनेन सह वार्तालापं करिष्यति। उभौ नेतारौ द्वैपाक्षिक सहयोगस्य पूर्णव्याप्तेः समीक्षां करिष्यतः तथा च परस्परस्य क्षेत्रीयान्तराष्ट्रिय विषयेषु मतानाम् आदान प्रदानं करिष्यतः। अद्य प्रधानमन्त्री श्रीमोदी सेशेल्स देशस्य राष्ट्रिय सभां सम्बोधयिष्यति। भारतीय प्रवासी सदस्यैः सह संवादमपि विधास्यति। पश्चात् प्रधानमन्त्री रोश कैमन इत्यत्र राष्ट्रिय दिवस समारोहे भागं भजिष्यति। मन्त्रालयेन उक्तं यत् भारतीय रक्षाबलानां एकेन दलेन सह भारतीय नौसेनायाः 2 नौकाभ्यां सह श्रीमोदी उत्सवे भागं ग्रहीष्यति। प्रधानमन्त्री श्रीमोदी ह्यः सेशेल्स देशस्य त्रिदिवसीय यात्रायां विक्टोरिया नगरं सम्प्राप्तवान्। विमानस्थानके सेशेल्स देशस्य राष्ट्रपतिना डॉक्टर पैट्रिक हर्मिनी इत्यनेन तस्य भव्यं स्वागतं विहितम्। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः भारतीय समवाय विशेषान् भारत यूके व्यापक आर्थिक व्यापार सन्धेः सीईटीए इत्यस्यान्तर्गतम् उदयोन्मुखावसरान् सुस्थिर व्यापार वृद्धौ परिवर्तयितुं यूके देशस्य समकक्षैः सह सम्पर्कं सुदृढं कर्तुं प्रार्थयत्। लंदन नगरे भारत यूके प्रगति व्यापार पूर्ण सम्मेलने सहभागिनां नेतृत्वावधौ मन्त्रिणा इदमुक्तम्। दिल्ल्याः मुख्यमंत्री रेखा गुप्तावर्या सावधानं कृतवती यत् यानि कोचिंग इति प्रशिक्षण केन्द्राणि अनिवार्य सुरक्षा मानदण्डानां पालनं न करिष्यन्ति तानि दिल्ल्यां कार्यं कर्तुं नानुमन्यन्ते। एकस्मिन् वीडियो संदेश श्रीमती गुप्ता अवदत् यत् दिल्ली सर्वकारः शीघ्रमेव कठोरं निरीक्षणं बृहत्तरं उत्तरदायित्वं छात्राणां सुरक्षां च सुनिश्चेतुं दृढं विनियामक विधिं प्रावर्तयिष्यति। भारत ऋतु विभागेन अद्य असम मेघालय उपहिमालय पश्चिम बंगाल सिक्किम प्रदेशेषु अत्यधिक वृष्ट्यै रक्तवर्णीया संचेतना प्रसारिता अस्ति। बिहार छत्तीसगढ़ कर्नाटक कोंकण गोवा ओडिशा तमिलनाडु पुदुचेरी करैकल तेलंगाना विदर्भ लक्षद्वीप अंडमान निकोबार द्वीपेषु अपि आगामी दिनद्वयोः कृते विभागेन संचेतना प्रसारिता अस्ति। ऋतु विभागेन ख्यापितं यत् श्वः दिल्ली हरियाणा चंडीगढ़ उत्तर प्रदेश इत्येतेषु प्रदेशेषु उष्णतरंगस्य स्थितिं भविष्यति। फीफा विश्वकप क्रीडायां इंग्लैंड देशेन अद्य प्रातः अमेरिका देशस्य न्यूजर्सी क्रीडांगणे स्वस्य ग्रुप एल क्रीडायां पनामा देशं 2-0 इत्यंकैः पराजितम्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणं आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति इति वार्ताः।